इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थान मध्यप्रदेशयोः च यात्रां विधास्यति। श्रीमोदी राजस्थानस्य चित्तौड़गढ़े 7,000 कोट्यात्मकं यावत् विभिन्न परियोजनाः राष्ट्राय समर्पयिष्यति। आधारशिलापि स्थापयिष्यति। स्वयात्रावधौ सः 4,500 कोट्यात्मकं यावत् रूप्यकैः विनिर्मितं मोहशाणा भटिण्डा गुरदासपुर वात्येन्धन नलिकातन्त्रस्यापि लोकार्पणं विधास्यति। सः आबू मार्गेत्यत्र एचपीसीएल इत्यस्य एलपीजी यन्त्रस्यापि लोकार्पणं करिष्यति। इतोऽपि प्रधानमन्त्री राष्ट्रिय राजमार्ग द्वादशे दराह झालावाड़ तीन धार खण्डे चतुःमार्गात्मकस्य लोकार्पणं विधास्यति। एषा परियोजना कोटा एवं झालावाड़ जनपदात् भण्डारस्य उपज परिवहनं सरलीकरोति। प्रधानमन्त्रिणा राष्ट्रं समर्पयन् रेल परियोजनासु चित्तौड़गढ़ नीमच रेल मार्गम एवं कोटा चित्तौड़गढ़ विद्युतीकृतम रेल मार्गस्य द्विगुणीकरणे सम्बद्धा परियोजनाः सम्मिलिताः सन्ति। श्रीमोदिना कोटायाः स्थायी भारतीय सूचना प्रौद्योगिकी संस्थानस्य परिसरः राष्ट्राय समर्पितम्। मध्यप्रदेशे प्रधानमन्त्री मोदी ग्वालियर इत्यत्र 60,229,000 कोट्याधिक विभिन्न परियोजनानां शिलान्यासं लोकार्पणं च विधास्यति। सः दिल्ली वडोदरा द्रुतमार्गं राष्ट्रं समर्पयिष्यति एवं पञ्च विभिन्न मार्ग परियोजनानां आधारम् अपि स्थापयिष्यति। केन्द्रीय युवा सन्दर्भ एवं क्रीडा राज्य मन्त्रिणा निशीथ प्रमाणिकेन नवदिल्ल्यां मेजर ध्यानचन्द राष्ट्रिय क्रीडांगणे फिट इंडिया स्वच्छता फ्रीडम रन इत्यस्य चतुर्थ संस्करणस्य शुभारम्भम् अकरोत्। इदमायोजनम् अक्टूबर मासस्य 31 दिनांकं यावत् आयोजयिष्यते। अस्योद्देश्यं शारीरिक स्वास्थ्य संवर्धनम् मेदुरात् आलस्यात् अशैथिल्यात् उद्विग्नादि रोगेभ्यः मुक्तये सहयोगम् अस्ति। अस्मिन्नायोजने स्वच्छ भारत स्वस्थ भारतेत्यस्य आवाहनेन नागरिकेभ्यः शारीरिक स्वास्थ्यं प्रति 30 निमेषः दातुं प्रार्थितः। फिट इंडिया फ्रीडम रन इति कार्यक्रमस्य समापनम् अक्टूबर मासस्य 31 दिनांके गुजरातस्य केवड़ियायां प्रस्तावितः वर्तते। प्रधानमन्त्री नरेन्द्रमोदी ह्यः तेलंगाना यात्रावधौ राष्ट्रिय हरिद्रा समिति इत्यस्य गठनम् अपि च मुलुग इत्यत्र समक्का सरक्का केन्द्रीय जनजातीय विश्वविद्यालयस्य निर्माणस्य घोषणाम् अकरोत्। महबूबनगरे नाना विकास परियोजनानाम् उद्घाटनं तान् राष्ट्राय समर्पणानन्तरम् एकां जनसभां सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् राष्ट्रिय हरिद्रा समितिः हरिद्रा उत्पादकानां कृषकानां कृते सर्वोपयोगी भविष्यति इति। प्रधानमन्त्रिणा अस्मिन्नवसरे 900 कोटि रूप्यकात्मकैः जनजातीय विश्वविद्यालयं निर्माणस्य घोषणां कृतम्। श्रीमोदिना अस्मिन्नवसरे 30,500 कोट्याधिक रूप्यकात्मकस्य मार्ग रेल संसाधन शिक्षा स्वास्थ्य विद्युतोर्जानां च विकास परियोजनानां आधारशिलापि संस्थापिता। ऋतुविभागेन अद्य बिहार झारखण्ड ओडिशा छत्तीसगढ़ राज्ये च अतिवृष्टेः संभावना ख्यापिता। आगामि त्रीणि दिनानि यावत् असम मेघालय नागालैण्ड मणिपुर मिजोरम त्रिपुरा अरुणाचल प्रदेशेऽपि अतिवृष्टिः संभाविता। ऋतुविभागानुसारम् अद्य केरलायाम् अपि अतिवृष्टिः आसारः दृश्यते। अद्य राष्ट्रपितुः महात्मा गांधीवर्यस्य 45,100तमं जयन्तिः वर्तते। ह्यः राष्ट्रपतिपदासीना द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप धनखड़ौ च गांधी जयन्त्योपलक्ष्ये पूर्वसन्ध्यायां राष्ट्राय शुभकामना प्रदत्तवन्तौ। राष्ट्रपतिः स्वीय सन्देशे प्रोक्तवती यत् महात्मा गांधीवर्यस्य सत्य आदर्श अहिंसाः इत्यैः विश्वस्मै नूतन मार्ग प्रशस्तम् अकरोत् इति वार्ताः।